అధికార విజయం అధిగతం అష్టాధ్యాయ్యాం అధికారా పుత్రపుత్ర భోక్తా తేషాం స్వభావ కీదృశ పుత్రపర్యంతం తేషాం వ్యాప్తి తర్హి వృక్షాణం నిర్మాణం కథం అధికార వృక్ష కథం భవతి కశ్చన గృహకార్యం కిచిత్ ప్రదత్తమాసీత్ మయా తేకమే మేర్మయా ప్రాప్తమస్తి అన్యేషాం పక్షత ఉత్తరం ఇతోపి నాగతం దత్తం గృహకార్యం క్రియతే చేత్ అత్ర కదాచిత్ భూతం లాభాయ భవతి ఇత్యే సూచయితుం ఇచ్చామి అద్య లక్ష్యం అగ్రే కారయితుం ఇచ్చామి తత్ర కైశ్చిత్ ఉత్సహ గృహకార్యం కిం ప్రదత్తమాసీత్ నావగతం కృతం కర్తవ్యమిది నావగతం ఇది కైశ్చిత్ నేను కృతమాసీత్ ఉచ్యతేధ్యాయం కే విచారా ప్రోక్తా అధ్యాయస్ విశ్లేషణం కుర్మ ఆదౌ గృహకార్యం కథం కర్తవ్యం ఇది విచారే కిచిది ఉచ్యతే భవంతః తృతీయాధ్యాయస్య ప్రథమభాగస్య ప్రథమం సూత్రమేది ఉద్ఘాటయంతి ఇది పశ్యంతి పశ్యంతే పుస్తకం భవతాం హస్తే స్యాత్ తర్హి తదా అవలోకయంతు తృతీయాధ్యాయస్య ప్రథమభాగస్య ప్రథమం సూత్రం భవతి ప్రత్యయః ఇది మా వృక్షమైన హేతు తేకం సాధారణ ఏకం కిచిత్ భౌతికం ఉదాహరణం దాని చేత కదాచిత్ భవతాం అవగతి స్యాత్ ఇది భావయామి ഏകം ദൃഢമസ്തി ചിന്തിക്കുക. ഗൃഹേ ബഹളമ പ്രകോഷ്ഠാഹ ഭവന്തി, ഉദാഹരണം ഡ്രോയിങ് റൂം, ബെഡ്റൂം, കിച്ചൺ ഇത്യാദി. ഉത്തമാസീത്യത്തെ പ്രത്യേകാധ്യായസൂത്രപര്യന്തം ചതുർത്ഥഭാഗത്തെ නිත්‍යම අධිකාරයයි. අනේ මොහොතේදී සුත්‍රේ අවෝතෙන් කියනවා අනන්තම් යම් සංචාරමය ප්‍රදත්තා අපි ප්‍රකටජ්ජය තද්වයෙන් විදුත් සම්ප්‍රාප්තිය යදි අනන්තම් අත්තාදී පුත්‍රගෙන්ද බලන සම්ප්‍රාප්තිය ඒකත් කරනවා ආලෝ නෝට්බුක් මැදේ ගුරුවන්ති ඉස්පණි පුත්‍රගේ ගුරුවන්ති තර්හි අවශ්‍යම එක විචාර සම්පත නිර්මාණය කරනවා ඒකේ ගුණාංශේ බොහෝ කරනවා ඉතින් අත්‍යවශ්‍ය දැක්ෂයන් ප්‍රති ඉතිරිව පරිගම සම්පූර්ණ අෂ්ටාධ්‍යාය ග්‍රන්ථයෙන් පාස් ඉරණි සත්‍යද සූත්‍රෙ මෙදි මයා පරාජිත අඥාන සත්‍යය මුක්තමාදී ප්‍රඥාජ පරිභාෂාජ විවිධ නියමේවත අධිදේශෝධිකාවලස්ස සත්‍යදම් සූත්‍රලක්ෂණම් මෙදි සූත්‍රාණි සත්‍යදම් සූත්‍රාණි ප්‍රඥා පරිභාෂා විවිධ නියම අධිදේශ අධිකාරේ තත්ත අෂ්ටාධ්‍යාය සංඛ්‍යා සූත්‍රාණි යදී පරිභාෂා සූත්‍රාණි යදී අධිදේශ සූත්‍රාණි යදී අධිකාර සූත්‍රාණි යදී අත්‍ර සංඛ්‍යාසූත්‍රාණි ආගත්‍ය අෂ්ටාධ්‍යායම් ඒකනවති සූත්‍රාණි වර්තන්ති ඒකනවති සංඛ්‍යාසූත්‍රාණි 91 පරිභාෂා සූත්‍රාණි ත්‍රයෝවිංශති පරිභාෂා සූත්‍රාණි වර්තන්ති පංචත්‍රිංශත් අධිදේශ සූත්‍රාණි සන්ති චතුස්සප්තදී අධිකාර සූත්‍රාණි සන්ති ප්‍රථමවචනමහ සංඛ්‍යාසූත්‍රාණි ඒකනවති සංඛ්‍යාසූත්‍රාණි 91 ත්‍රයෝවිංශතිහි පරිභාෂාසූත්‍රාණි 23 32 පංචත්‍රිංශත් අධිදේශ සූත්‍රාණි සන්ති අධිකාර සූත්‍රාණි චතුස්සප්තදී 24 අවශිෂ්ටාව සර්වේහි නියම සූත්‍රේසු අසව විධි සූත්‍රේසු අන්තර්ගතයි නියම සූත්‍රාණං සංඛ්‍යාය උපදම් කරුප්පායි සුත්තේ නියම සූත්‍රාණ යාව විධි සූත්‍රාණං ඒක රූප වේය සුත්‍ර වෛදේශ්‍යම් නාම විධි සූත්‍රේසු ඒ රුක්තම් තත් පුනහ උක්ත්‍රා නියම විධි කල්පයේ ඒ වෛදේශ්‍යය විධි සූත්‍රේසු නියම සූත්‍රේසු ජේනම නාම නියම සූත්‍රාණ හැද විධි සූත්‍රාණේව परंतु तत्र तस्य नियमनाप्य अपेक्षतया उच्यते इत्येव तत्र वैशिष्ट्यम् अतः नियमसूत्राणि अवशिष्टानि सर्वाणि अपि विधिसूत्रेषु नियमसूत्रेषु अन्तर्भवन्ति अत्र एतेषां निर्णयः क्रियते चेत् टोटल् एतावन् सूत्राणि आगमन्ति तानि संख्यापरिभाषा अधिवेशाधिकारेषु एव समाप्यन्ते अवशिष्टानि सूत्राणि सर्वाणि अपि विधिसूत्राणि अत्र नियमसूत्राणि तत्र मया कदाचित् कस्मिंश्चित् कक्षायां किञ्चित् उक्तम् एकम् अध्यायद्वयं दत्तमासीत् तस्मिन् अध्याये ते विचाराः प्रोक्ताः इति तत्र प्रथमाध्याये संख्यासूत्राणि परिभाषासूत्राणि च उक्तानि इत्यपि उक्तम् प्रथमादर्शनस्य कारणमासीत् प्रधानतया तस्मिन् प्रकरणे अर्थात् तस्मिन् अध्याये ඒ විචාරාව උක්තාහ ඉතිව තත්ව දක්නස්්‍ය අධිප්‍රාය කාති අත්හත් සමිජා විචාරාහ පරිභාෂා විචාරාස්ත්‍ර අධිත්වයෙන උක්තාහායි තත්ව ඒ විචාරාව උක්තාහ අන්‍ය ජේ විචාරාහ උක්තාහ ප්‍රදත්වට සිංජි අන්තම ප්‍රවිශ්‍ය සිංසිට අවලෝකයන් ප්‍රථමාධ්‍යායිශ්‍ය प्रथमाध्याये प्राधान्येन ये विचाराः उक्ताः इत्यस्मिन् विषये अधुना परिशीलयामः प्रथमाध्यायस्य स्वरूपम् प्रथमाध्यायेन चतुर्थः विभक्तः चत्वारः पादाः सन्ति तत्र यथा मया पूर्वम् उक्तं प्रत्यध्यायं चत्वारः पादाः अनुस्यूताः पाणिनिना अष्टौ अध्यायाः प्रत्यध्यायं चत्वारः पादाः सन्ति प्रथमद्वितीयतृतीयचतुर्थ इति एवम् आगत्य अष्टाध्याय्यां द्वात्रिंशत् पादाः सन्ति तत्र प्रथमाध्यायस्वरूपम् अत्र अवलोक्यते. प्रथमाध्यायस्य प्रथमपादे आहत्य सूत्राणां सङ्ख्या भवति. भवन्तः पुस्तकम् उद्घाट्य पश्यन्तु, तदैव भवतां स्पष्टता आयाति. सूत्राणां सङ्ख्या भवति पञ्चसप्ततिः. प्रथमाध्यायस्य प्रथमपादे सूत्राणां सङ्ख्या अस्ति पञ्चसप्ततिः. पञ्चसप्ततिसूत्राणि प्रथमाध्यायस्य प्रथमपादे सन्ति. तत्र प्रथमाध्यायस्य प्रथमपादे विचारणीयः अंशः भवति संख्या एवं परिभाषा. प्राधान्येन संख्या एवं परिभाषाणां विचारः अत्र प्रथमपादे उच्यते. तत्र आदौ प्रथमाध्यायस्य प्रथमपादस्य प्रथमं सूत्रं पश्यन्तु. प्रायः सर्वेषां समीपे पुस्तकमस्ति इति भावयामि, अतः कथयन् गच्छन्नस्मि. अवश्यं यदा पाठः क्रियते प्रतिदिनं प्रतिभानुवादनं यदा पाठः क्रियते, अवश्यं सर्वेषां समीपे अष्टाध्यायी इत्ययं ग्रन्थः भवेत्, येन च सौकर्यं भविष्यति. पश्यन्तु, प्रथमाध्यायस्य प्रथमपादे प्रथमं सूत्रं भवति वृद्धिरादैः. ततः आरभ्य प्रथमाध्यायस्य प्रथमपादस्य दशमसूत्रपर्यन्तं माच्छलौ इति सूत्रं प्राप्तं. तावत्पर्यन्तं वर्णसम्बन्धिसंख्याः उच्यन्ते. वर्णसम्बन्धिसंज्ञाः पश्यन्तु, वृद्धिसंज्ञा उच्यते वृद्धिरादैः. वृद्धिरादैः इति सूत्रेण आकार ऐकार औकार इत्येवम् आकार ऐकार औकार इति वर्णत्रयाणां त्रयाणां वर्णानां वृद्धिः इति संज्ञा. आ इत्युक्ते वृद्धिः, ऐ इत्युक्ते वृद्धिः, औ इत्युक्ते वृद्धिः, एवं च वृद्धिः इति तेषां संज्ञा. अग्रे व्याकरणशास्त्रे पुनः पुनः आकार ऐकार औकाराणाम् उच्चारणं यथा कर्तव्यं न स्यात् इत्येतदर्थं त्रयाणां मिलित्वा वृद्धिः इति संज्ञा प्रदत्ता. तेषां च विधिसूत्रेषु कार्यं यथा मया पूर्वमुक्तं, संज्ञासूत्राणि परिभाषासूत्राणि परार्थाणि भवन्ति इति कदाचित् मया उक्तमासीत्. परार्थं नाम परं नाम विधिसूत्रमेव. संज्ञासूत्राणि परिभाषासूत्राणि च विधिसूत्राणां साहाय्यार्थम् उपनिबद्धाः वर्तन्ते, उपनिबद्धानि वर्तन्ते. एवञ्च तत्र वर्णसम्बन्धिसंज्ञाः, वर्णेभ्यः याः सङ्ख्याः उक्ताः तान् सङ्ख्याः सर्वाः अपि प्रथमाध्यायस्य प्रथमपादस्य प्रथमसूत्रादारभ्य प्रथमाध्यायस्य प्रथमपादस्य दशमसूत्रपर्यन्तम् उपनिबद्धाः. यथा वृद्धिसंज्ञा वृद्धिरादैः इति सूत्रेण, गुणसंज्ञा अनेन गुणः इति सूत्रेण, ततः सर्वोऽनन्तरात् संयोगः इति संयोगसंज्ञा उच्यते, ततः मुखनाशिकावचनो नाशिक इति अनुनाशिकसंज्ञा, तुल्यास्य प्रयत्नं सवर्णमिति भवन्तः पुस्तकम् उद्घाटयन् चेत् तत्र अवश्यम् एतानि सूत्राणि उपलभ्यन्ते. पश्यन्तु, प्रथमाध्यायस्य प्रथमपादे एतानि सूत्राणि दृश्यन्ते. ततः वर्णसमूहरूपसंज्ञाः उच्यन्ते. प्रथमाध्यायस्य प्रथमपादात् एकादशसूत्रपर्यन्तसूत्रादारभ्य प्रथमाध्यायस्य प्रथमपादस्य चतुत्वारिंशत् सूत्रपर्यन्तं वर्णसमूहरूपसंज्ञाः, अर्थात् वर्णसमूहस्य एव संज्ञा दीयते. शब्दानां संज्ञा इति वा वक्तुं शक्यते. प्रतीयसंज्ञा, विसंज्ञा इत्यादि उदाहरणानि, इत्यादीनि उदाहरणानि. एवं बहवः संज्ञाः तत्र प्रथमाध्यायस्य प्रथमपादे प्रोक्ताः. प्रतीयसंज्ञा, ඉන්දුරේ ද්වේෂණම් ප්‍රවිෂ්ඨේ සූත්‍රේන ප්‍රවිෂ්ඨේ සංඥා දාථා සුරා දිවි සූත්‍රේන දුකම් ඥා දායෝ දාථා ඉමලේ අත්‍ර දෝෂාස්ති දාදාය කියාතමස්ති දාථා සදා ඉති වලේ ප්‍රදර්ශන ඒ ප්‍රතිතරව පොදු සේමද දෝෂාස්ති පරික්ෂියතා රාධා මහා ප්‍රාණහස්ති දිවිය ප්‍රකාරක
ඒ වගේ
यदि परिभाषा सूत्र से अन्यत्र विवेचन स्यात् तर्हि यद् वृत्तिः एवं गुणा शब्दस्य अनुवृत्तिः भवति अनुवृत्तिः नाम पूर्णसूत्रात् स्वीकृत्य आगमनम् इदानीं यथा वयं सर्वनामादिशब्दानां प्रयोगं कुर्मः राजवार्थं यथा रामः ग्रामं गच्छति तत्र उद्योगं करोति इत्युच्यते तत्र इति प्रयोगेण किं ग्रामः उच्यते यदि तत्र इति प्रयोगेण नोच्येत ग्रामः ग्रामः इति प्रतिपर्यायम् उच्यते तर्हि तत्र बहु दीर्घप्रयोगाः स्युः पुनः पुनः तस्य उच्चारणं करणीयं च पुनः पुनः रामशब्दस्य उच्चारणमेन क्रियते तथैव अत्र शास्त्रे पुनः पुनः पदानां प्रयोगः यदि सूत्रेषु क्रियेत तर्हि सूत्राणाम् आधिक्येनैव सूत्रं बहु बृहत् भवेत् तेन किं स्यात् यद् अल्पाचरणसन्दिग्धमि शास्त्रमस्माभिः उच्यते तद् कदाचित् तस्य लक्षणस्य हानिः स्यात् एवं च एतेषां सूत्रत्वं न स्यात् अतः एतेषां सूत्रत्वसम्पादनाय अनुवृत्तिः इति यदुच्यते अधिकारवत् इदानीम् अधिकारसूत्रं कथम् अभूत् एकस्मिन् स्थाने स्थित्वा अन्यत्र सर्वत्र तेषां प्रयोगः इति खलु अधिकारसूत्राणां लक्षणं मया उक्तमासीत् तथैव अनुवृत्तिविचारोऽपि तथैव ज्ञेयः अनुवृत्तिविचारे पूर्वसूत्रात् यत् यत् पदम् आवश्यकं तद् यदि सूत्रे अस्मिन् न दृश्यते तर्हि तत् पूर्वसूत्रात् आनेयम् सूत्रेषु अदृष्टं पदं सूत्रान्तरात् अनुवर्तनीयम् इति लघुसिद्धान्तकौमुद्यं किञ्चित् वाक्यमस्ति सूत्रेषु अदृष्टं पदं सूत्रान्तरात् अनुवर्तनीयम् पूर्वसूत्रादान्य अत्र सूत्रस्य व्याख्यानं कर्तव्यम् इत्यर्थः यदि विप्रोगुणवृद्धिः सूत्रस्य अन्यत्र क्वचित् पाठः क्रियते तर्हि तत्र वृद्धिः एवं गुण इत्यनयोः अनुवृत्तिः कर्तुं न शक्यते इत्यनयोः आनयनं न शक्यते यदि आनीयते पुनः तस्य गुणवृद्धिः इत्यनयोः तत्र पुनः पाठः करणीयः अर्थात् विभो गुणवृद्धिः गुणवृद्धिः इति वक्तव्यं स्यात् एवं सति सूत्रं दीर्घं भवति दीर्घे सूत्रे पुनः अल्पाक्षरत्वमिति लक्षणमुक्तं तस्य हानिः स्यात् अतः तद्रक्षणाय सूत्राणां यत्र यत्र भ्रमः आश्रितः यत्र यत्र अनुवृत्तिः अस्ति अनुवृत्त्या यत्र कार्यं साधयितुं शक्यते तादृशस्थलेषु तादृशनिवेशाः च प्रसङ्गमपि प्रसङ्गः अपि तत्रैव अस्ति वृद्धिः गुणः इत्युच्यते तर्हि तदनुगुणानि यानि कार्याणि भवन्ति वृद्धिकार्याणि गुणकार्याणि तत्र अपेक्षिताः याः परिभाषाः सन्ति परिभाषाः नाम परिभाषायाः लक्षणं मया उक्तमासीत् किमिति अन्यने नियमकारिणी परिभाषा इदानीं वृद्धिशब्दमा यदि क्वचित् प्रयुज्यते तत्र यदि अन्यमः भवति तर्हि नियमकल्पनं सूत्रं भवति विभो गुणवृद्धिः अरे गुणः इत्यत्र यदि गुणसंज्ञा उक्ता तादृशगुणः अन्यत्र यदि विधिशब्देषु विधिसूत्रेषु प्रयुक्तः तर्हि तत्र यदि अन्यमः प्रसक्तः तस्य गुणः कर्तव्यः इति यदा अन्यमः भवति तदा इको गुणवृद्धि इति सूत्रेण इत्वर्णाः इत्वर्णाः ते एतेषां वर्णानां गुणवृद्धिः भवति इति नियमः अनेन उच्यते अनेन नियमः क्रियते यत्र यत्र अनियमः अस्ति एवञ्च तत्तत्स्थलेषु यत्र यत्र मखण्डः दृष्टः तत्र तत्र सर्वत्रापि तत्तत् परिभाषासूत्राणि निवेशितानि पाणिनः यथा च वृद्धिरागे कथं गुणः इत्युत्तरं गोगुणवृद्धि तदनन्तरं तस्य विशेषः उच्यते न धातुलोपार्थधातुके गुणस्य विशेषः चेदिका विधिवेदिकाम् इत्यादि विशेषाः अपि तत्तत्स्थलेषु यदि उच्यते तर्हि लाघवं भवति शास्त्रे इति कृत्वा तत्प्रसंगेषु तत्सूत्राणां वैराग्यसूत्राणां निषेधसूत्राणां च निवेशः कृतः भवनीयः। एवञ्च अत्र प्रथमाध्याये परिभाषासूत्राणि एवं परिभाषासूत्राणि निवेशितानि वर्तन्ते। तत्र संख्यासूत्राणि वर्णसम्बन्धिसंज्ञाः वर्णसमूहरूपसंज्ञाः एवं विभाषासंज्ञा सम्प्रकारसंज्ञा इत्येवं संख्याः प्रोक्ताः। परिभाषासंज्ञाः तत्पुस्तकेषु प्रसङ्गानुसारं निवेशिताः सूत्राणि निवेशितानि परिभाषासूत्राणि निवेशितानि इत्येवं क्रमेण प्रथमाध्यायस्य प्रथमभागस्य स्वरूपम् अत्र समाप्यते। इदानीं द्वितीयपादं पश्यामः। द्वितीयपादे प्रथमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रादारभ्य अर्थात् द्वितीयपादस्य प्रथमसूत्रादारभ्य द्वितीयपादस्य षड्विंशतितमसूत्रपर्यन्तम् अतिदेशसूत्राणि उक्तानि। अतिदेशः नाम आरोपः इति मया कदाचिदुक्तम्। इदानीं यथा गुरोः स्थाने शिष्यः याज्ञिकुलानि गत्वा द्रव्याणि लभते इति प्रयोगः मया तत्र उदाहरणरूपेण प्रदर्शितः आसीत्। कश्चित् गुरुः गुरुणा गन्तव्यमस्ति, यज्ञार्थं गुरुः आहूतः अस्ति यज्ञादि विषये, परन्तु गुरोः राजान्तरवशात् आगन्तुं गन्तुं न शक्यते। पुरा गुरुः किं करोति, शिष्यं प्रेषयति। तत्र यज्ञयन्त्र प्रवर्तते, तत्र गुरोः स्थाने शिष्यः आगतः अस्ति इति कृत्वा यथा गुरुभिस्तः व्यवहारः क्रियते, गुरोः कृते ये सम्मानविशेषाः दीयन्ते ते सर्वेपि शिष्याय दीयन्ते। यतोहि गुरोः स्थाने शिष्यः आगतः, गुरुवरेव व्यवहारं तत्र शिष्ये अपि क्रियते। अत्र तादृशं यत् स्वरूपं भवति तत् अतिदेशः इति उच्यते। तादृशसूत्राणाम् अतिदेशसूत्रम् इति सूत्राणि इति व्यवहारः क्रियते। एवञ्च द्वितीयाध्यायस्य प्रथमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रादारभ्य प्रथमाध्यायस्य द्वितीयपादस्य षड्विंशतितमसूत्रपर्यन्तम् अतिदेशसूत्राणि निबद्धानि पाणिनः। उदाहरणार्थं मुत्वादिदेशः इत्यस्ति, प्रत्ययाः सन्ति, प्रत्ययः नाम चेत् यत् प्रातिपदिकात् अथवा धातोः अनन्तरं योज्यते तेषां प्रत्ययः इति व्यवहारः। एवञ्च प्रत्ययानां मुत्वादिदेशः, इदानीं मित् वत् भवति इति उच्यते। मित् नाम नकारः इत् यत् इत् नाम एति गच्छति इति, अर्थात् तत्र न तिष्ठति इति अर्थः। उदाहरणार्थम् अन्य इति प्रत्ययः अस्ति, अन्य इति प्रत्ययः, तत्र नकारस्य इति संख्या। इदानीं भवन्तः अहमेकम् उदाहरणं प्रदर्शयामि, तेन भवताम् अवगमनं भविष्यति। भरतस्य अपत्यं भारतः इति भवति, अत्र अण् प्रत्ययः भवति, भरत इत्यतः अण् इति प्रत्ययः। इदानीं भारतः इत्यत्र भारतम् इत्यत्र अण्णकारः श्रूयते वा, इत्यतः नकारः अस्ति, सः भारतः इत्यत्र श्रूयते वा नास्ति खलु। तेन किं जायते, नकारः अत्र न तिष्ठति इति। एवञ्च भरत इत्यत्र अन्यति योज्यते भारत इति भवति, यदि नकारः तत्र तिष्ठति तर्हि भारतान्यति प्रयोगः स्यात्, परं तथा प्रयोगः न दृश्यते। तेन किम् अवगम्यते, अन्यत्र नकारः गच्छति, अर्थात् सः नकारः उच्यते, गच्छति इत्युक्ते उच्यते व्यवहारः, गच्छति तस्यैव इच्छति व्यवहारः। तत्र नकारः इत् यस्य प्रत्ययस्य सः नित् भवति, तस्य नित् इति व्यवहारः। नकारः इत्यत्र नकारः यदस्ति सः नित्यस्य प्रत्ययस्य यत्र प्रत्यये नकारः इति भवति तादृशप्रत्ययः नित्यप्रत्ययः इति उच्यते. यत्र नकारः इति न भवति तत्र सः नित् भवितुम् अर्हति. तत्र यदि नित्यति व्यवहारः इष्यते तस्मात् प्रत्यये नित्यति व्यवहारः इष्यते. तदा किं करणीयं? नित्यवस्तु भवति इति वक्तव्यं भवति. यथा शिष्यः गच्छति नित्यकालं, परन्तु सः किं गुरुः वा वास्तविकतया नास्ति, परन्तु गुरुः आयतः तस्य स्थाने गच्छति अपेक्षितः, तर्हि चिन्त्यते तत्र गुरुवद्भावः आरोप्यते. एवमेव यत्र प्रत्यये नकारः इति न भवति तादृशस्थले नित्वत् इति वक्तव्यं चेत् किञ्चित् सूत्रम् आवश्यकम्, अतिवेशः कर्तव्यः. अतः नित्वाद्वेषार्थं सूत्रमस्ति गाङ्कुटादिद्रोण्यन्मित् गाङ्कुटादिद्रोण्यन्मित् इति सूत्रमेतत्. तेन सूत्रेण नित्वम् अतिलिख्यते, नित्वस्य अतिदेशः क्रियते. एवमेव षड्विंशति अतिदेशसूत्राणि सन्ति. द्वितीयपादस्य प्रथमसूत्रादारभ्य द्वितीयादस्य द्वितीयपादस्य षड्विंशतिसूत्रपर्यन्तम् अतिदेशसूत्राणि उक्तानि. ततः प्रथमाध्यायस्य द्वितीयपादस्य त्रयस्त्रिंशत्तमसूत्रादारभ्य अत्र कश्चन दोषः अस्ति. षड्विंशतिः इति न भवेत् खलु, षट्त्रिंशत् इति भवेत्. ततः षट्त्रिंशत् सूत्रपर्यन्तम् एकश्रुति सूत्राणि भवन्ति. एकश्रुतिसम्बन्धि सूत्राणि भवन्ति. एकश्रुतिः नाम एकः स्वरः, स्वरत्रयमिति खलु प्रतिष्ठम् उदात्त अनुदात्त त्वरित इति. अत्र एकश्रुतिः उच्यते एते सूत्रेषु. एतेभ्यः समाना श्रुतिः भवति, समानः स्वरः भवति, स्वरत्रयं न भवति इति रचनार्थं तानि सूत्राणि तत्र उपनिबद्धानि. तदा प्रथमाध्यायस्य द्वितीयपादस्य अष्टपञ्चाशत्तमसूत्रादारभ्य त्रिषष्टितमसूत्रपर्यन्तम् पश्यन्तु त्रिषष्टितमसूत्रं किमस्ति. प्रथमाध्यायस्य द्वितीयपादस्य त्रिषष्टितमसूत्रं भवति शिष्य पुनर्वत्सो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्. जात्याख्यायाम् एकस्मिन् बहुवचनमन्यतस्यामि सूत्रादारभ्य शिष्य पुनर्वत्सो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यमि सूत्रपर्यन्तं वचननिर्धारणार्थानि सूत्राणि सन्ति. वचनं निर्धार्यते. वचनं नाम एकवचन द्विवचन बहुवचनादि वचनानि. तानि वचनानि तत्र तेषां वचनानां निर्देशः प्रदीयते. ततः प्रथमाध्यायस्य द्वितीयभागस्य चतुष्षष्टितमसूत्रादारभ्य प्रथमाध्यायस्य द्वितीयभागस्य त्रिसप्ततितमसूत्रपर्यन्तम् एकशेष प्रकरणम् एकः शिष्यते इत्यत्र. यथा मातापितरौ इत्यत्र वयं पितरौ इति प्रयोगं कुर्मः एवमेव एकशेषसूत्राणि प्रथमाध्यायस्य द्वितीयभागस्य चतुष्षष्टितमसूत्रादारभ्य प्रथमाध्यायस्य द्वितीयभागस्य अन्तिमसूत्रपर्यन्तम् एकशेषप्रकरणम् इत्यवगन्तव्यम्. ततः अन्तिमविचाराः द्वितीयभागे सन्ति. संज्ञाः संज्ञासूत्राणि सन्ति, परिभाषासूत्राणि अपि तत्तत्प्रसङ्गेषु उक्तानि. सहकरादेशः, ह्रस्वविधिः, त्रिप्रत्ययस्य लुक्, गोण्याः इकारादेशः, धृतिवित्तवर्तावः, अतिशयप्रकरणम्. एवम् एतानि एते विचाराः तत्र तत्तत्स्थलेषु लोक्ताः सन्ति. तदनु तृतीयपादे एते विचाराः उक्ताः. पश्यन्तु प्रथमाध्यायस्य तृतीयपादे द्वितीयसूत्रादारस्य अष्टमसूत्रपर्यन्तम् उत्सम्या प्रकरणम्. तेषां वर्णानाम् उत्सम्या भवति इति ज्ञानं यदि प्राप्तुमिष्यते
कश्चन प्रश्नः आगतः अस्ति एकश्रुति प्रकरणस्य विवरणम् इति क्रियते चेत्
प्रथमाध्यायस्य द्वितीयपादस्य त्रयस्पञ्चत्तमसूत्रादारभ्य एकोनचत्वारिंशत् सूत्रपर्यन्तं 39 तत्र दोषः अस्ति मया पूर्वमपि उक्तं तत्र 26 नास्ति तत्र 39 भवेत् तावत्पर्यन्तम् एकश्रुतिप्रकरणम् एकश्रुतिः नाम ततः पूर्वमेव उदात्त अनुदात्तद्वैतसंज्ञाः उक्ताः उदात्तम् एतानि सूत्राणि उक्तानि एकश्रुतिप्रकरणे उक्तानि सूत्राणि सर्वाण्यपि तदर्थमेव उक्तानि तथा एव पश्यन्तु एकश्रुतिप्रकरणे कानि सूत्राणि सन्ति इति एकश्रुतिदूरात् सम्बुद्धौ इति सूत्रादारभ्य द्वैतात् संहितायाम् अनुदात्तानां इति सूत्रपर्यन्तम् एकश्रुतिप्रकरणम् तृतीयपादे द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तम् इष्टं विना प्रकरणमस्ति उक्तं पूर्वम् एति गच्छति इति अर्थात् केन तिष्ठति केन तिष्ठन्ति इति प्रश्नः उत्पन्नः भवति एतां वर्णानाम् इत्युक्ति संज्ञा इति यदा सन्देहः भवति तदा एतानि सूत्राणि तत्र उपयुज्यन्ते तत्र इत्संज्ञाप्रकरणं प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रादारभ्यते उपदेशे जननादिक इत्यादि सूत्रादारभ्य दशत्वदद्विते इति सूत्रपर्यन्तं सूत्राणि सन्ति पश्यन्तु उपदेशे जननादिक इत् उपदेशे अच्वर्णानाम् उत्पन्ना भवति इति उच्यते अच्वर्णानाम् अकार इकार उकार स्वरवर्णानाम् उत्पन्नार्थम् एतत् सूत्रम् फलन्त्यम् उपदेशे अन्त्यम् अल्लित्वा यत्र प्रत्यय आगम आवेश इत्यादिषु अन्तिमवर्णः खल् भवति खल् नाम व्यञ्जनवर्णः भवति तत्र व्यञ्जनवर्णानां निष्पन्नार्थं खलन्त्यम् इति सूत्रम् तदनन्तरं द्वितीयसूत्रमुक्तं नैमुत्तौ रुक्माः इति ततःपरम् आगमीकुलवः नीलु लु एतेषां निष्पन्नार्थं ततःपरं षट् प्रत्ययस्य प्रत्ययस्य आदौ यदि षकारः अस्ति मूर्धन्यषकारः तर्हि तदर्थम् एतत् सूत्रमुक्तं षट् प्रत्ययस्य इति तदा चुः चुः इत्युक्ते कवर्गः कवर्गः प्रत्ययस्यादौ यदि कवर्गः अस्ति कवर्गः अस्ति चेत् तेषां निष्पन्ना न चत्वदर्थिते न च कवर्गाः नकारकवर्गाः इति प्रत्ययस्यादौ भवन्ति चेत् तेषां निष्पन्ना इति एवं वर्णानां निष्पन्या विधायकानि सूत्राणि प्रथमाध्यायस्य तृतीयभागस्य द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तम् उक्तं वर्तते ततः आत्मनेपदप्रकरणं प्रथमाध्यायस्य तृतीयभागस्य द्वादशसूत्रादारभ्य एकादशसूत्रपर्यन्तम् आत्मनेपदप्रकरणम् आत्मनेपदप्रकरणं नाम यत्र धातूनाम् आत्मनेपदप्रश्नेपद इति विभागः भवति प्रायः ज्ञायते भवति इति प्रश्नेपदम् एधरे इति आत्मनेपदम् इत्येवं कुत्र कुत्र आत्मनेपदं भवति इत्येतज्ञानार्थम् इत्येतस्य ज्ञानार्थम् अष्टाध्याय्याः प्रथमाध्यायस्य तृतीयपादस्य द्वादशसूत्रादारभ्य एकसूत्रे सूत्रपर्यन्तं यानि सूत्राणि सन्ति తాని ఏది అవరోక్ష్యంటే తరి భవత్సాం జ్ఞానం దృశ్యతే ఆత్మనే పదం కుత్ర ప్రయోక్తవ్యం కుత్ర భవతి ఆత్మనే పదత్వం భవతి కుత్ర చ న భవతి ఏం ప్రథమాధ్యాయస్య తృతీయ భాగస్య ద్విసప్తమ సూత్రాదారభ్య సముద్రైతమ సూత్ర పర్యంతం ఉభయ పద ప్రకరణం ఉభయ పదం నామ ఎత్ర పరస్మై పదమపి భవతి ఆత్మనే పదమపి భవతి పురాణ పఠతి ఇది అస్తి ప్రయోగా అన్యవిచారాయ్యాలు ధాతుమిత్యాది ధాతులు విద్యనే వ్యవస్థ ఏమేవ క్రియావాచకాయుక్త ఉపదేశే ప్రథమాధ్యాయ చతుర్థ భావస్య ప్రయోగించడం సూత్రాధారే పంచపంచాశత్వం సూత్రపర్యంతం ధారకే షట్పంచాశత్వం సూత్ర సప్తమోత్తర సూత్రపర్యంతం ప్రాగేశ్వరా నిపాతాది నిపాతాధికార ప్రథమాధ్యాయకి చతుర్థభాగా జగదీతమ సూత్రాదారభ్య అష్టనవతమ సూత్రపర్యంతం ధర్మ ప్రయోజనీయమై చెప్తారు. చాలా అధికారాలు చతుర్థభాగే దృశ్యంతి బహూని సూత్రాన్ని ఉక్తాన్ని ప్రత్యేకమైన సంజ్ఞాయా బహూని సూత్రాన్ని ఉక్తాన్ని అపాదాన సంజ్ఞాయా సూత్రాన్ని ఉపయోగ సర్వత్ర శాస్త్రే భవతి సర్వత్ర శాస్త్రే భవతి కృత్వా येषां संख्यानाम् उपयोगः क्वचित् एकत्र वा उभयत्र वा जायते तेषां च तत्त्वस्थानेषु उपयोगः कृतः वर्तते इत्येवं प्रथमाध्यायस्य विचारः अत्र अवशिष्यते सन्देहाः यदि सन्ति भवन्तः प्रष्टुमर्हन्ति सन्देहार्थम् अयं कालः प्रदीयते Thank you.